ओम
वदतु
वागर्थादिवसं प्रक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ ॐ
धन्यवादः भगिनि. बहु सुन्दरं श्लोकम् अस्ति. सर्वेभ्यो नमः.
समीचीनं भगिनि.
धन्यवादः भगिनि. सर्वेषां स्वागतम्. अस्माकं सर्वेभ्यो नमः. अस्माकं प्रवर्तमानविषयः अस्ति अव्ययानि इति. तत्र गतवर्गे इति यत् इति विषय तत्र अस्माकं वर्गं स्थगितम् आसीत् इति मन्ये. इदानीं तत्र गृहपाठः यदस्ति तत् कृत्वा अग्रे गच्छामः. तत्र मूलविषयः अस्माकं मूलविषयः भवति चतुर्थीविभक्तिः इति. अतः तत्र इति अपि यत् तस्मिन् विषये किञ्चित् समयम् एव यापयित्वा तदनन्तरम् अग्रे चतुर्थीविभक्ति तां प्रति गच्छामः. अस्तु तर्हि तत्र तत्र गृहपाठः आसीत्. तत्र यत् अपि इति तयोः मध्ये कः भेदः इति पुनःस्मरणं किञ्चित् कुर्मः. तत्र मधुसूदन महोदय नमस्कारः. नरेश महोदय नमस्कारः.
नमस्कारः.
उषा भगिनी तत्र किञ्चित् वदति वा सरल उदाहरणं यत् अपि इति तत्र
इति अस्ति महोदय. इति वाक्यस्य अन्तिमम् आयति इति.
तत्र मम मित्रः तत्र अहं गच्छामि इति मम मित्रं
वदति.
अहं गच्छामि इति मम मित्रं वदति. इदानीं इदानीं तदेव वाक्यं यत् उपयुज्य वदामश्चेत् किं भवति?
मम मित्रं वदति यत् अहं गृहं गच्छामि.
तावदेव. अतः तत्र अत्र अर्थभेदः अस्ति वा? नास्ति, अर्थभेदः नास्ति. केवलं रूपभेदः अस्ति. तत्र यत् तत्र सन्देशः वा अथवा वचनं वा कथनं वा यत्किमपि अस्ति तद् इति अस्ति चेत् सन्देशः कथनं सर्वं पूर्वं भवति. यत् अस्ति चेत् सन्देशः कथनं वा किमपि अनन्तरं भवति. तावत् एव भेदः तयोः मध्ये.
यदि इति अपि यत् भेदः नास्ति किमपि वयं उपयोगं कुर्मः.
सत्यं भगिनि, तत्र भेदः नास्ति. किन्तु तत्र सन्दर्भानुसारं तत्र यत् इति समीचीनं भवति रूपम् अथवा
यदि कोटेशन् मध्ये
तत्र इति अस्ति चेत् इति अस्ति चेत् कोटेशन् आवश्यकं. तत्र तत्र किम् उद्धरणम् आवश्यकम् अस्ति. उद्धरणचिह्नः आवश्यकम् अस्ति. किन्तु तत्र यत् यत् इति तस्य उपयोगः प्रयोगः भवति चेत् तत्र उद्धरणस्य आवश्यकता नास्ति. किन्तु अर्थभेदः नास्ति. यत् यत् रूपम् इच्छामः तत् कर्तुं शक्नुमः.
क्षम्यतां, कोटेशन् वाक्यं संस्कृत मध्ये
उद्धरणम् इति कोटेशन् यत् साक्षात् उद्धरणम् अस्ति कोटेशन् इति.
धन्यवादः.
उद्धरणम् इत्युक्ते कोटेशन्. अस्तु तर्हि तत्र
महोदय एक विचार महोदय, यकार साधारणतया संस्कृतभाषायां य अस्ति चेत् किञ्चित् अनिश्चितम् अस्ति चेत् य आगच्छति, यदा कदा यदा कदा अपि च यदि.
ओ ओ अस्ति अस्तु भगिनि, तत्र तत्र पदद्वयम् अस्ति इति यत् तत् इति तादृशम् अस्ति इति चिन्तनं वा भवत्याः?
आं महोदय,
तत्र प्रायशः तादृश अत्र नास्ति भगिनि, तत्र यतेव अस्ति. यदा तदा यदि तर्हि तादृश सम्बद्धपदद्वयम् अत्र केवलं यत् एव अस्ति भगिनि.
यत् इत्युक्ते
दट् धृतराष्ट्रः उवाच यत्.
गीता पारायणं कर्तुं समये अन्तिमे ओम् तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु इति वदेमः, तत्र तत्सदिति
तत्र तत्र अर्थभेदः अस्ति भगिनि, तत्र अर्थभेदः अस्ति. तत्र इति इत्युक्ते दस् इति तादृश. अत्र अत्र तस्य इति इति पदस्य एकः एव अर्थः स्वीकृतः अस्ति, इत्युक्ते कोटेशन् मार्क् इति अर्थः एव स्वीकृतम् अस्ति. पश्यतु तत्र पेज् 143 मध्ये यानि उदाहरणानि दत्तानि सन्ति तत्र सर्वत्र इति इत्युक्ते तत्र कोटेशन् मार्क्स् एव. तस्मिन् अर्थे यत् इति पदस्य प्रयोगः भवति,
परन्तु
अन्य अर्थे न.
अपि च विष्णुसहस्रनाममपि अन्ते
सत्यं सत्यं तत्र इति इत्युक्ते तत्र अस्तु, तत्र विषयः कः, अस्तु अहं वाक्यद्वयं वाक्यत्रयं वदामि, अस्तु तदनन्तरम् अहं वदामि इति विषयः अस्ति. इत्युक्ते तत्र यद् वक्तव्यमासीत् तद् अहम् उक्तवान्, तत्र अन्तिमं तत् पर्याप्तम् इति तादृशः अर्थः भवति भगिनि. तत्र अतः तत्र इति अत्र तस्य प्रयोगः कीदृशः अस्ति चेत् तत्र उद्धरणस्य अन्तः इति सूचयति तत् कोटेशन्स्, तत्र एण्ड् आफ् द कोटेशन् इति सूचयति तत्. समीचीनं वा? किन्तु तत्र इति पदस्य एकः एव अर्थः स्वीकृतः अत्र, तस्य अर्थप्रयोगः तत्र कोटेशन् यत्र अस्ति तत्र कोटेशन् स्थाने तत्र इति स्थाने वयं यत् अपि तस्य प्रयोगम् अपि कर्तुं शक्नुमः इति तावदेव विषयः अत्र.
परन्तु अत्र अपि च वार्तभेदः अस्ति इति
पदस्य सन्दर्भानुसारं तत्र अनेकाः अर्थाः सन्ति, अनेकाः अर्थाः सन्ति, अत्र एकः अर्थः स्वीकृतः उद्धरणम् इति अर्थे, कोटेशन् कोट् अन् कोट् इति अर्थे स्वीकृतः अस्ति अत्र. सन्दर्भानुसारं तत्र पदस्य अनेकाः अर्थाः भवन्ति खलु, यदि तत्र वयं किं भवति इति न, किन्तु प्राप्नोति इति किमपि क्रियापदस्य अर्थस्य अन्वेषणं कुर्मः तत्र अनेकाः अर्थाः लभ्यन्ते, किन्तु सन्दर्भे कः यस्मिन् अस्मिन् सन्दर्भे कः अर्थः सम्यक् भवति इति तत्र किञ्चित् चिन्तनमपि करणीयमस्ति खलु. अतः अस्तु इदानीं तत्र एकः अभ्यासः, तत्र वयं गतवर्गे वयं तृतीय अभ्यासः पेज् 144 मध्ये न कृतवन्तः खलु?
महोदय एकं प्रश्न महोदय, यदि इति उदाहरणं चिह्नं सूचयति, किन्तु चिह्नं तु संस्कृतभाषायामेव नास्ति.
उद्धरणं सूचयति भगिनि, उद्धरणम्, उद्धरणम् इत्युक्ते कोटेशन्, अतः इति इति अस्ति तत्र. अतः यत् 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 वयं तत्र सन्देशः अस्ति, तत् सन्देशः उक्त्वा, सन्देशम् उक्त्वा, किन्तु कदा जानीमः, कथं जानीमः तत्र कोऽपि आगच्छति सन्देश, सन्देशं सन्देशेन सह, सन्देशं वक्तुम् इच्छति सः, सः आरम्भं करोति, वदति वदति वदति. इदानीं वयं जानीमः वा तत्र सन्देशस्य, सन्देशं पर्याप्तम् अपि, इदानीं सः अन्यत् किमपि वदति न वा, कथं जानीमः? किमपि पदं तत्र भवेत् खलु, यत् वदामः वयं जानीमः अस्तु इति, अतः इति इति तत्र अस्ति, इति सन्देशः इति भवति, ततः वयं जानीमः अस्तु तत्र यत् पूर्वम् उक्तं तत् सन्देश, सः सन्देशः इदानीम् अन्य अन्यः विषयः किमपि भवति इति. तत्र यथा व्याकरणे तत्र इच्छिन्नः तस्य उपयोगः भवति, तादृशः अत्रापि लिमिटर् इति, डिलिमिटर् तादृश, तत् सीमां सूचयति.
अन्तिमम् एकवारम् अवलोकयतु महोदय, इति यत् भेदं, भेदः
भेदं किमपि नास्ति महोदय. तत्र मम मित्रं न एकनिमिष, अहं गच्छामि इति मम मित्रं वदति, मम मित्रं वदति यत् अहं गच्छामि, तावदेव. समानार्थकवाक्यं, वाक्यद्वयं, यत्र इति अस्ति तत्र यत् अपि उपयोगं कर्तुं शक्नुमः, किन्तु तत्र वाक्यस्य भागद्वयस्य यत् इति पूर्वमस्ति तत् यत् अनन्तरम् आगच्छति, य अपि तत्र परिवर्तनं भवति, तावदेव भागद्वयस्य.
सर्वे सन्दर्भाः समानमेव.
यत्र यत्र तत्र उद्धरणं भवति तत्र तत्र एतत् कर्तुं वक्तुं शक्नुमः, कर्तुं शक्नुमः.
अस्तु,
नमस्ते महोदय, क्षन्तव्यं, विलम्बः जातः.
चिन्ता मास्तु भगिनि, चिन्ता मास्तु. अस्तु तर्हि तत्र नरेश महोदय,
कुत्र
स्मः? पेज् 144 भगिनि, पेज् 144 इति अपि यत् इति विषये. नरेश महोदय, इदानीं तत्र इति उपयुज्य तृतीय अभ्यासः, तत्र
तृतीय अभ्यासः यथोदाहरणं चिरानि लिखत, सत्यमेव जायते, निन्दको गमिष्यद्, सत्यमेव जायते इति मुण्डकोपनिषद्
निषदः निषदः वचनं
वचनं,
तत्र षष्ठी अस्ति महोदय, मुण्डकोपनिषदः वचनम् इति
निषदः वचनं. कर्मण्य वा विकारस्य श्रीमद्भगवद्गीता, कर्मण्य वा विकारस्य इति श्रीमद्भगवद्गीतायाः वचनम्.
समीचीनं महोदय. अग्रे
अग्रे गुणाः पूजास्थानं भवति इति, गुणाः पूजास्थानम् इति भवभूतेः वचनम्.
समीचीनं महोदय, समीचीनम्. अग्रे तत्र मधुसूदन महोदय, अग्रे.
पुटसङ्ख्या
पेज् 144 महोदय, पेज् 144 तत्र इदानीं तृतीय अभ्यासे चतुर्थवाक्यं महोदय.
पश्यतु आं महोदय सत्यं वद धर्मं चर तैत्तरी उपनिषत्
तत्र उदाहरणं दृष्ट्वा वदतु महोदय तावदेव
इति सत्यं वद धर्मं चर इति तैत्तरी उपनिषत् वचनं
तैत्तिरीयोपनिषदः वचनं तावदेव अग्रे
यतो धर्मस्ततो जयः इति महाभारतं वचनं
महाभारतस्य
वचनं
तावदेव अग्रे
सर्वमात्मावशं सुखं सर्वमात्मावशं सुखम् इति चाणक्यनीतिः वचनं
नीतिः इति पदस्य षष्टि किमस्ति
नीतिः
हरिः हरिः हरेः भवति नीतिः नीतेः
वचनम्
अथवा मतिः भवति चेत् मतेः अपि भवति चाणक्यनीतेः वचनम् इति इदानीं तत्र शोभा भगिनी इदानीं तत्र यत् इति उपयुज्य वदामश्चेत् किं भवति भगिनि तत्र सत्यमेव जयते इति वाक्यं स्वीकृत्य वदति वा
आं महोदय मुण्डकोपनिषद् वदति यत् सत्यमेव जयते
तावदेव समीचीनं भगिनि अग्रे
श्रीमद्भगवद्गीता वदति यत् कर्मण्येवाधिकारस्ते
तावदेव अग्रे अपि भगिनि
भवभूतिः वदति यत् गुणाः पूजास्थानम्
तावदेव समीचीनं भगिनि धन्यवादः उषा भगिनी अग्रे
तैत्तिरीयोपनिषद् वदति सत्यं वद धर्मं चर
मध्ये मध्ये एकं पदम् आवश्यकं भगिनि
इति
समीचीनं अग्रे
यतो धर्मस्ततो जयः महाभारतं महाभारतं वदति यत् यतो धर्मस्ततो जयः
अग्रे
सर्वमात्मवशं सुखं चाणक्यनीतिः वदति यत् सर्वमात्मवशं सुखम्
इति समीचीनं भगिनि इदानीम् इति उक्तवान् इत्युक्ते सो इति समाप्तम् इति अभ्यासः इति तावदेव तत्र यत् इति न वक्तुं शक्नुमः तत्र इति एव भवति
महोदय
अस्तु तत्र
महोदय
किं महोदय
तैत्तिरीयोपनिषदः वचनं यत् सत्यं वद धर्मं इति अपि वक्तुं शक्यते वा वदति
पुनरेकवारं महोदय तैत्तिरीयोपनिषदः वचनं
महोदय अहम् अशृणोम् तैत्तिरीयोपनिषद् वदति यत् सत्यं वद धर्मं च अहं
समीचीनं
वदामि तैत्तिरीयोपनिषदः वचनं यत् सत्यं वद धर्मं
तदपि वक्तुं तत् द्वयमपि साधु भगिनि साधु महोदय द्वयमपि साधु तत्र केवलम् उद्धरणमस्ति इति वक्तुम् इच्छामः तावदेव अतः तत्र तैत्तरीयोपनिषदः वचनं यत् इत्युक्ते तदेव साक्षात् यद् वदामः तदेव तत्र उपनिषद् तत्र अस्ति इति सूचना तावदेव समीचीनं महोदय
अस्तु धन्यवादः
अस्तु अत्र चतुर्थ अभ्यासः गतवर्गे कृतवन्तः वा अस्मिन् पुटे
न महोदय
न परोपकाराय एव मम जीवनम् इति
न महोदय
न
न
अस्तु 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 तर्हि तत्र ललिता भगिनी तत्र आरम्भं करोति वा चतुर्थ अभ्यासः तत्र
यत् इति पदम् उपयुज्य वाक्यानि रचयत परोपकाराय एव मम जीवनं सज्जनाः चिन्तयन्ति परोपकाराय एव मम जीवनम् इति सज्जनाः चिन्तयन्ति
समीचीनं भगिनि अग्रे
अथवा सज्जनाः चिन्तयन्ति यत् परोपकाराय एव मम जीवनम्
समीचीनं भगिनि अस्तु अग्रे
हितं मनोहारी च वचः दुर्लभं बारवे इति बारवेः वचनम् अस्ति अथवा बारवेः वचनम् अस्ति यत् हितं मनोहारी च वचः दुर्लभम्
समीचीनम् अत्र वचः इति पदस्य लिङ्गं किम् इति जानाति वा
वचः षष्टि विभक्ति हितं मनोहारी च
बहुवचनं प्रथमा तु समीचीनं
प्रथमा विभक्ति
अन्य कोऽपि वक्तुम् इच्छति वा तत्र वचनं किम् अपि तत्र वचः इति पदस्य लिङ्गं
बहुवचनम् अस्ति द्वितीयविभक्तौ अस्ति वा महोदय
तत्र अर्थः कः पद वाक्यस्य तत्र बारवेः वचनस्य अर्थः कः किमपि दुर्लभम् अस्ति किमपि दुर्लभम् अस्ति अस्तु पश्यामः भगिनि तत्र दुर्लभम् इति अस्ति दुर्लभम् इत्युक्ते किम् सुलभतया न लभ्यते इति समीचीनं अस्तु तत्र किं दुर्लभम् अस्ति हितं मनोहारी च इति अस्ति तत्र च इत्युक्ते तत्र समूहः सूचयति तत्र समूहे के के सन्ति
हितमपि
मनोहारि हितमपि मनोहारि
नपुंसके
नपुंसकलिङ्गं नपुंसकलिङ्गपदं पदद्वयं नपुंसकलिङ्गं हितम् अपि मनोहारि नपुंसकलिङ्गं पदं पदद्वयम् अस्ति तत्र हितं मनोहारि च वचः दुर्लभम् यत् वचः यत् वचः हितं मनोहारि तत् दुर्लभम् यत् वदामः तत् हितं भवेत् अथवा मनोहारि भवेत् किन्तु हितं मनोहारि च न सुलभतया वक्तुं शक्नुमः इति भारवेः वचनम् अत्र भारवेः वचनं हितमपि मनोहारि अस्ति वा यत् भारवेः उक्तवान् तत्तु हितमपि अस्ति मनोहारि अपि अस्ति खलु किन्तु सः वदति हितं मनोहारी च वचः दुर्लभम् इति अस्तु अस्तु अग्रे गच्छामः ललिता भगिनी समीचीनं वा इदानीं
मनोहारी
मनं हरति इति मनोहारी
मनहरति
इति इत्युक्ते इट् इस् अट्राक्टिव् इति भगिनी वदतु भगिनि
अतः प्रथमविभक्तौ अस्ति वा वचः दुर्लभं
सत्यं भगिनि तत्र तत्र दुर्लभम् इति वचः दुर्लभम् इति विशेषणविशेषभावः अपि वचः इति प्रायशः वचस् इति अस्ति भगिनि अथवा वच् इति प्रायशः अस्ति भगिनि द्रष्टव्यं
मनः
हा तदपि भवेत् भगिनि हा द्रष्टव्यं द्रष्टव्यं
महोदय हा स्थितिः अस्ति
इति मम चिन्तनं किन्तु न स्मरामि किन्तु नपुंसकलिङ्गपदं तत्तु जान तत्तु स्मरामि किन्तु वचः इति प्रायशः वाच् इति प्रायशः तद् वच तत्तु स्त्रीलिङ्गपदम् अस्ति इति मन्ये भगिनि तत् प्रायश भगिनि तत्र नपुंसकलिङ्गे अस्ति वा तद् द्रष्टव्यम् अस्ति किन्तु अत्र नपुंसकलिङ्गे अस्ति इति तत्र मनोहारिन् अपि हितं दुर्लभं सर्वं वच पदस्य विशेषणं भवन्ति विशेषणानि भवन्ति परोपकारम् तत्र एव मम जीवनं तत् किन्तु तत्र परोपकाराय इति तत्र तत् नपुंसकलिङ्गे अस्ति किन्तु तत्र विशेषणं नास्ति तत्र तस्मिन् वाक्ये अस्तु
अग्रे स्त्रीलिङ्गः महोदय
वाच् इति स्त्रीलिङ्गपदं वा महोदय
अस्तु
किन्तु वच् किन्तु वचस्थिति प्रायशः अस्ति इति मन्ये महोदय तत्र अतः तस्य प्रथमविभक्तिरूपं वचः इति मन्ये भगिनि
वाक् वाग् वाचौ वाचः बहुवचनं तु
तद् नास्ति अस्तु तद् नास्ति
चकारान्ति महोदय
किन्तु नपुंसकलिङ्ग तत्तु निश्चयम् अस्ति अत्र अस्तु अग्रे गच्छामः तत्र वंशीसुत भगिनी अग्रे करोति वा पठति वा सत्यं वद इति सकारान्तमेव अस्तु ओ मनः मनसि पुनः एकवारं भगिनि प्रथमविभक्तिरूपं वचः वचसि वचांसि अस्तु भगिनि धन्यवादः अस्तु भगिनि
कुत्र तृतीयबिन्दुः अस्ति किल
तृतीयबिन्दुः भगिनि
सत्यं वद गुरुः शिष्यम् अकथयत् सत्यं वद इति गुरुः शिष्यम् अकथयत् गुरुः शिष्यम् अकथयत् यत् सत्यं वद इति वक्तुं शक्यते वा अहं
समीचीनं भगिनि समीचीनं द्वयमपि साधु द्वयमपि समानार्थकपदं वाक्यम्
अस्तु चतुर्थबिन्दुः अस्ति कुत्र प्रदर्शनं मां मा पृच्छ तृतीयविभक्ति अपि च कुत्र प्रदर्शनं इति मां मा पृच्छ मां मा पृच्छ यत् कुत्र प्रदर्शनं अस्ति वा अस्ति योजयामः
कुत्र प्रदर्शनं यत् साक्षात् वक्तुम् इच्छामः तदेव तत्र यत् अनन्तरम् अतः
परन्तु इति यदि उपयोगं कुर्मः तत् पूर्वं कोट् भवितव्यं किल महोदय तत्र
मा पृच्छ तत्र कुत्र प्रदर्शनं इति मां मा पृच्छ सत्यं भगिनि तत्र कोट्स् इति तत्र लेखनसमये आवश्यकम् अस्ति सत्यम् इति अत्र नियमः निर्दिष्टः अस्ति तत्र अस्मिन् पुस्तके
वचनं कथनं सन्देशः इत्यादीनि
सत्यं भगिनि तत्र तत्र उद्धरणं यत्र अस्ति तत्र कोट्स् इति तत् तत्र चिह्नं लिखित्वा तत्र वाक्यं लिखामः सत्यं भगिनि
पञ्चमम् अपि करोमि वा महोदय
करोतु भगिनि
उत्तिष्ठत जाग्रत स्वामिनः स्वामिनः विवेकानन्दस्य उद्घोषः उत्तिष्ठ जाग्रत इति स्वामिनः विवेकानन्दस्य उद्घोषः स्वामिनः विवेकानन्दस्य उद्घोषः यत् उत्तिष्ठत जाग्रत
अत्र अहं रघुवीरानन्द महोदयेन ज्ञातम् एतत् कठोपनिषद् निषदः वाक्यम् इति सत्यं खलु महोदय रघुवीरानन्द महोदय
तदेव मन्त्रं
सर्वाणि उपनिषदान् उपनिषदः पठितवन्तः
अस्तु अहं न ज्ञातवान् पूर्वं किन्तु रघुवीरानन्द महोदय उक्तवान् अतः मम पुस्तके लिखितवान् अतः अहं स्मरामि अस्तु अग्रे गच्छामः इदानीं पञ्चम अभ्यासः तत्र शोभा भगिनी कृतवती अस्तु तत्र एतावत् श्रीनिवास महोदय अस्ति अपि रघुवीरानन्द महोदय आरम्भं करोति वा पञ्चमम्
इति शब्दं परित्यज्य यत् शब्दं योजयित्वा वाक्यं रचयत ईशावास्यमिदं सर्वम् इति ईशावास्योपनिषदः ईशावास्योपनिषदः कथनम् अस्ति यत् ईशावास्यमिदं सर्वं क्षम्यतां क्षम्यताम् इति अनुजः अवदत् यत् क्षम्यतां क्षम्यताम्
अग्रे महोदय
आगच्छतु आगच्छतु इति गृहस्वामी अवदत् यत् आगच्छतु आगच्छतु
अग्रे
सर्वे सामान्यवाक्यं ददाति
सत्यं
पूर्वसमीपे
शीघ्रं शीघ्रं चलतु इति पिता कथयति यत् शीघ्रं शीघ्रं चलतु
इति समीचीनं महोदय धन्यवादः अग्रे श्रीनिवास महोदय वदति वा
आं महोदय मया एव क्रियते इति शङ्करः वदति यत् मया एव क्रियते
हा एकनिमिषं महोदय वंशीसद भगिनी प्रश्नः अस्ति वा
आं महोदय तत्र उपनिषदः स्त्रीलिङ्गं भवति वा महोदय तत्र
उपनिषद् दकारान्तपदं प्रायशः न जानामि भगिनि हलन्तपदम् उपनिषदः
स्त्रीलिङ्ग् महोदय
स्त्रीलिङ्ग् वा अस्तु धन्यवादः किन्तु हलन्तपदं अतः उपनिषदः इति अस्तु धन्यवादः गीताञ्जलि भगिनी धन्यवादः श्रीनिवास महोदय अग्रे पठतु महोदय
वसुधैव कुटुम्बम् इति भावना विश्वशान्तेः मूलमस्ति विश्वशान्तेः मूलम् भावना विश्वशान्तेः मूलमस्ति यत् वसुधैव कुटुम्बम्
तत्र किं वक्तुं तत्र समीचीनमेव महोदय किन्तु तत्र किञ्चित् परिवर्तनं कर्तुं शक्नुमः इति चिन्तयामि तावदेव समीचीनमेव तत्र भावना विश्वशान्तेः मूलं किं भगिनि मूलभावना न वक्तुं शक्नुमः भगिनि यतः मूलमिति नपुंसकलिङ्गे अस्ति भावना स्त्रीलिङ्गे अस्ति
समस्तपदमस्ति चेत् मूलभावना इति
न तत्र भावना विश्वशान्तेः
तत्र वाक्यं
विश्वशान्तेः मूलं या भावना भावना अस्ति यत् इति प्रायशः तादृशवाक्यं प्रायशः भवति शोभगिनी भवती यत् चिन्तयति वा
तत्र महोदय विश्वशान्तेः मूलम् अस्ति यत् वसुधैव कुटुम्बकम् इति भावना
किन्तु तत्र यत् इति उपयोगं कर्तुम् इच्छामः इदानीं
आम् महोदय तत्र विश्वशान्तेः मूलम् अस्ति यत् वसुधैव कुटुम्बकम् इति भावना
इति अपि यत् द्वयमपि न वक्तुं शक्नुमः खलु भगिनि
तत्र तदपि अर्थपूर्णः भवति अस्तु
विश्वशान्तेः मूलभावनम् अस्ति वसुदैव यत् वसुदैव कुटुम्बम्
तत्र किञ्चित् चिन्तव्यम् अस्ति. सर्वे चिन्तयन्तु, किं पुनर् अग्रिमे वर्गे अस्मिन् विषये किं चिन्तनम् इति वदन्तु. किन्तु श्रीनिवास महोदय, तत्र किञ्चित् चिन्तनम् आवश्यकम् इति मन्ये महोदय. यद् भवान् उक्तवान् तद् प्रायशः समीचीनमेव, किन्तु पुनरेव एकवारं किञ्चित् चिन्तयित्वा पुनरेकवारं
तत्र महोदय किञ्चित् भिन्नः भिन्नवाक्यम् अस्ति महोदय. तत्र इति वाक्ये पुनरेकवारं भवति चेदपि यत् अपि भवति महोदय. तत्र तत्र इति
प्रायशः प्रायशः भगिनी, किन्तु तत्र यत् उदाहरणरीत्या अथवा अभ्यासरीत्या यत् दत्तम् अस्ति तादृशः वाक्यं नास्ति अत्र. अतः किञ्चित् चिन्तनं सत्यं खलु? सत्यं खलु. अतः तत्र यत् भवती वदति तत् प्रायशः समीचीनमेव अस्ति, तादृशः वाक्यमेव भवेत्, किन्तु किञ्चित् चिन्तयित्वा वदामः इति तावदेव. अस्तु, श्रीनिवास महोदय अग्रे वदतु महोदय.
कर्मण्येवाधिकारस्ते मा फलेषु इति कृष्णः अवदत्. कृष्णः अवदत् यत् कर्मण्येवाधिकारस्ते मा फलेषु.
हा, समीचीनं महोदय. अग्रे
अहं न युष्ये इति अर्जुनः उक्तवान्. अर्जुनः उक्तवान् यत् अहं न युत्से. युत्से इति महोदय
युत्से, अहं न युद्धं करोमि इति महोदय.
युद्धं,
युद्धम् अहं न करोमि इति. अग्रे
स्वधर्मे निधनं श्रेयः इति जानीता.
जानीता यत्
स्वधर्मे निधनं श्रेयः.
तत्र जानीता इति अस्ति चेत् तत्र कर्तृपदं किं भवति?
वयं
तत्र वाक्यानि रचयत, वाक्यं रचयत, जानीत इति अस्ति तत्र. मध्यमपुरुष बहुवचनं. बहुवचनं यूयं. यूयं जानीत यत् स्वधर्मे निधनं श्रेयः. समीचीनम्. अग्रे अन्तिमं करोतु महोदय.
काम्यानां कर्मणां न्यासः सन्न्यासः इति कवयः वदन्ति. कवयः वदन्ति यत् काम्यानां कर्मणां न्यासः सन्न्यासः.
तावदेव. तत्र यत्र यत्र इति भवति, उद्धरणं भवति, तत्र यत् इति उपयुज्य वक्तुं शक्नुमः. तावदेव. धन्यवादः महोदय. अस्तु, तत्र अग्रे एकः अभ्यासः अस्ति, तत् कृत्वा तत्र चतुर्थीविभक्ति इति विषयं तत्र तं प्रति गच्छामः. अस्तु, तत्र तृतीय.
महोदय, यत् इति पदं वयं साधारणतया तु न दृश्यामः, इति एव सर्वे अस्ति.
सर्वदा तदेव भवति. सत्यं भगिनि. किन्तु प्रायशः इदानीं सत्यं सत्यं भगिनि, तत्र यत् इति प्रथमवारं दत्तम् अस्ति अत्र. प्रायशः अग्रे प्रायशः गीता सोपानस्य द्वितीयभागे प्रायशः भवति न वा न स्मरामि. बहुवारं दृष्टवन्तः. सत्यं सत्यं भगिनि, सत्यं सत्यं. सत्यं सत्यं.
स्वधर्मं स्वधर्मे निधनं श्रेयः मीन्स् अर्थं निधनं धनं विना.
न न निधनम् इति धनं विना न. तत्र सा अवधानम् इति तादृश निधनम् इति युक्ते तत्र तदेव करणीयं. स्वधर्मे एव तत्र निधनम् इति सावधानम् अवधानम् इति तत् तादृशधनम् एतत् धनम् इति तत्र तादृश मनि इति तादृश अर्थः नास्ति, भिन्नः अर्थः. तत्र निधनम् इति कोऽपि जानाति वा, स्मरति वा निधनम् इत्युक्ते किम् इति?
मृत्यु महोदय.
न स्वधर्मं स्वधर्मे निधनम्, एतत् निधनं नास्ति भगिनि.
डिस्ट्रक्शन् महोदय, निधन, निधनं डिस्ट्रक्शन् इति दत्तम्।
ओ इति वा, अस्तु
न जानामि। एकं तु
मृत्यु अपि श्रेष्ठम्।
ओ श्रेष्ठम्, अस्तु 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 अस्तु। हा अतः तत्र क्षत्रियधर्मे, अर्जुनस्य क्षत्रियधर्मे तत्र तत् कृत्वा, तत् कुर्वन् मृत्युः प्राप्नोति चेत् सः एव श्रेष्ठः इति। हा अस्तु, निधनम् इति। हा समीचीनं, धन्यवादः भगिनी। हा
निधनं मृत्यु,
निधनम् इत्युक्ते मृत्यु। हा किन्तु तत्र स्वधर्मे एव धर्मं, यत् अस्माकं धर्ममस्ति तस्मिन्नेव मृत्यु प्राप्नुमश्चेत् सः श्रेष्ठः इति। धन्यवादः, प्रश्नः अपि उत्तरम्। अस्तु अग्रे अग्रे गच्छामः। इदानीं तत्र तृतीय अभ्यासः पेज् 146 मध्ये तत्र शोभा भगिनी इदानीं करोति वा तृतीय अभ्यासः?
आं महोदय। अधः कृष्णस्य उपदेशवाक्यानि दत्तानि, तानि यत् इति पदेन पुनः कथयत। यथा कृष्णः अवदत् यत् मन्मनाः भव, मन्मनाः भव यत् इति पदस्य उपयोगं करणीयम्। एकनिमिषं महोदय। कृष्णः अवदत् यत् मन्मनाः भव, मन्मनाः भव यत् कृष्णः अवदत्।
न न न, मन्मनाः भव, न न भगिनि, मन्मनाः भव इति कृष्णः अवदत्,
इति कृष्णः अवदत्। एकनिमिषं महोदय। कृष्णस्य तानि यत् इति पदेन पुनः कथयत। यथा कृष्णः
तत्र उदाहरणं कृतमस्ति
यत् मन्मनाः भव। तत्र कृष्णः अवदत् एव योजयामः।
हा हा, कृष्णः अवदत्, सर्वत्र कृष्णः अवदत् यत् इति उपयुज्य वाक्यं रचयामः, तावदेव।
अस्तु महोदय। कृष्णः अवदत् मन्मनाः भव, कृष्णः तत्र द्वितीयवाक्यम् अहं पापेभ्यः मोक्षयिष्यामि। कृष्णः अवदत् यत् अहं पापेभ्यः मोक्षयिष्यामि।
हा समीचीनं भगिनि, वदतु वदतु भगिनि।
मामेकं शरणं व्रज। कृष्णः अवदत् यत् मामेकं शरणं व्रज।
अग्रे
अग्रे सदोषमपि सहजं कर्म न त्यजेत्। कृष्णः अवदत् यत् सदोषमपि सहजं कर्म न त्यजेत्
इति। तत्र तत्र मन्मनाः भव इत्युक्ते यस्य मनः मयि अस्ति सः मन्मनः। एतत् तत्र गीताश्लोक 18th chapter 65 अपि द्वितीय तृतीय
मनः इति आरभ्य मन्मनः भवति खलु महोदय?
हा हा सत्यं भगिनि, सत्यं सत्यं तत्र। हा सत्यं सत्यं भगिनि। हा तत्र मन्मनाः भव, मद्भक्तः मद्याजि मां, किमपि तादृश अस्ति। हा तत्र 1865, तदनन्तरं द्वितीयं तृतीयम् 1866 यद्भवती इदानीं पठितवती, तत् 1848 अस्ति। सदोषमपि सहजं कर्म न त्यजेत्। तत्र यत् कुर्मः सहजतया कुर्मः तद् दोषमस्ति चेदपि तद् न त्यक्तव्यम् इति तादृश अर्थः किमपि अस्ति।
तत्र इत्युक्ते किं पुनः वदतु कृपया?
यस्य मनः मयि अस्ति सः मन्मनः। तत्र तदनन्तरम् आगच्छति भगिनि, मद्भक्तः मद्याजि मां नमस्कुरु इति। तत्र सर्वं सर्वं कृष्णे भवेत् इति। कृष्णस्य भक्तः भवतु इति। हा अस्तु, तत्र अत्र अस्माकं कार्यं तु बहु सुलभमस्ति, केवलं यत् इति वक्तव्यं तावदेव, किन्तु वाक्यस्य अर्थः तत्र गम्भीरः अस्ति, तत्र गीताश्लोक पठनेन एव भवति, केवलं संख्या तत्र वदामि तावदेव. अस्तु, अग्रे उषा भगिनी.
आं महोदय. कृष्णः अवदत् अहं लोक
इदानीं तत् वदतु भगिनि. यत् कृष्णः अवदत्
यत् श्रद्धावान् लभते कृष्णः अवदत्.
एतदस्ति 4.39 भगिनि.
4.39 कृष्णः अवदत् अहं लोकक्षयकृत् प्रवृत्तः कालः अस्मि.
तत्र कालः अस्मि, कीदृशः कालः कृष्णः वदति सः अस्ति इत्युक्ते तत्र प्रवृद्धः, तत्र बहु बलशाली कालः, किं कर्तुं शक्नोति सः, तत्र लोकक्षय कर्तुं शक्नोति, लोकस्य क्षयं भवति.
प्रथमं किं श्लोके महोदय, पुनरेकवारं वदतु.
मन्मनाः भव इति 18.65 भगिनि.
अस्तु महोदय, धन्यवादः.
तत्र 1865 सेकेण्ड् थर्ड् 1866 तदनन्तरं फोर्थ् अस्ति 1848 फिफ्त् अस्ति 4.39 एतदस्ति 11.32 इति मन्ये.
अस्तु महोदय.
अस्तु उषा भगिनी अग्रे.
कृष्णः अवदत् योगक्षेमं वहाम्यहम्.
एतदस्ति 9.22 अग्रे भगिनि.
कृष्णः अवदत् आत्मना आत्मना आत्मानम् उच्चरेत्.
भगिनि मध्ये अत्र मध्ये पदम् आवश्यकम्.
कृष्णः अवदत् महोदय.
तदनन्तरं यत्
क्षम्यतां महोदय.
चिन्ता मास्तु.
आत्मना आत्मानं चरेत्.
समीचीनं भगिनि. एतत् 6.5 अस्ति भगिनि.
संख्या नास्ति महोदय.
किम् उक्तवती भवती? आत्मना आत्मानम् उद्धरेत्. तत्र आत्मा एव माध्यमम्, तद् उपयुज्य आत्मानम् उद्धरेत्. तत्र आत्मनः उद्धारम् आत्मना कुरु इति. तत्र आत्मा इत्येव माध्यमं तत्र कीदृश, तत्र
तृतीया
माध्यमम् अस्ति तत्र. किं वदामः, तत्र मार्गः अपि आत्मा, माध्यममपि आत्मा, तत्र लक्षणः अपि आत्मा इति. तादृश अर्थे तत्र गोल् पात् सर्वम् आत्मा इति तादृश अर्थे अस्ति भगिनि इति मन्ये.
आत्मा एव
इति, आत्मना आत्मानम् उद्धरेत् तत् इति. अग्रे भगिनि.
कृष्णः अवदत् यत् ये यथा मां प्रपद्यन्ते तान् तथैव भजामि.
ये यथा मां प्रपद्यन्ते तान् तथैव भजामि. अग्रे भगिनि.
कृष्णः अवदत् यत् अहं कर्म न कुर्यां चेत् लोकाः लकारः उत्सीदेयुः
पठेयुःलिङ्ग विधिलिङ्ग इति स्यात् इति पश्यामः खलु, स्यात् तादृश. तत्र यदि सः कर्म न कुर्यात् न करोति न कुर्यात् तत्र लोकाः तेषां तत्र नाशं भवति इति, तत्र सर्वं डिटीरियरेट् इति तादृश अर्थे अस्ति.
उत् उपसर्गपूर्वकम् अस्ति तत्र.
उत् इति पूर्व उपसर्ग अस्ति.
सीदति अस्ति वा महोदय?
हा सीदति, उत्सीदति, सत्यं भगिनि, सीदति उत्सीदति इति. हा लट्लकारे तद् रूपम् अस्ति, सत्यं भगिनि. अन्तिमं भगिनि.
कृष्णः अवदत् यत् अहं सर्वभूतेषु समः अस्मि.
हा अस्तु, तावदेव. अतः तत्र यत् इति उपयुज्य तत्र सर्वं वक्तुं शक्नुमः, इति अपि उपयुज्य वक्तुं शक्नुमः.
महोदय, भगवद्गीतायाः
संख्या कुत्र आरभ्य भगिनि, कुत्र आरभ्य? तत्र
नवबिन्दु महोदय,
नवम 4.11 अस्ति भगिनि. हा दशम अस्ति 3.24, अपि एकादशम् अस्ति 18.54.
धन्यवादः.
यदि एतत् दत्तमस्ति गीतासोपाने सुलभं भवति. अहं न जानामि किमर्थं ते न तत्र किमर्थं न दत्तम् अस्ति इति. अस्तु,
बिन्दु संख्या किं महोदय?
6.5 भगिनि.
वयमपि अन्वेषणं कुर्मः इति न दत्तं तत्र महोदय.
सत्यं भगिनि, हा सत्यं सत्यं, हा सत्यं, समीचीनमेव. अस्तु, इदानीम् अत्र इदानीं तत्र मूलविषयः, तत्र नूतनविषयः, तत्र चतुर्थी विभक्तिः इति. तत्र चतुर्थी विभक्तिः कुत्र भवति इति प्रथमतया पश्यामः, तदनन्तरं तस्मिन् विषये किञ्चित् चर्चयामः. तत्र एतावत्. हा ललिता भगिनी तत्र पठति वा?
पठामि. चतुर्थीविभक्तिः. दिव्यं ददामि ते चक्षुः. उच्चैः पठत जानीत च. शिवः अर्जुनः.
शिवः अस्ति, अर्जुनः अस्ति.
शिवः अर्जुनाय पाशुपतास्त्रं ददाति.
अग्रे
आञ्जनेयः सीतायै अङ्गुलीयकं ददाति. भीमः द्रौपद्यै सौगन्धिकपुष्पं ददाति.
तत्र
अत्र अर्जुनः पुल्लिङ्गशब्दः. चतुर्थी विभक्ति अर्जुनाय, रामाय एव.
समीचीनं भगिनि, समीचीनं.
सीताहे माला
आकारान्त स्त्रीलिङ्गपदम्, आकारान्त स्त्रीलिङ्गपदम्, आकारान्त स्त्रीलिङ्गपदम्, नदी शब्दम्. बहु समीचीनम् अस्ति भगिनि, हा समीचीनं, हा अस्तु. अतः तत्र वदतु भगिनि, वदतु भगिनि. अग्रे वाक्यद्वयं पठतु भगिनि.
इन्द्रः कर्णाय शक्त्यायुधं दत्तवान्. कर्णः रामः शब्द, इट्स् लैक्
अकारान्त
पुल्लिङ्गशब्दः.
शिक्षिका
छात्रायै गीतां दत्तवती. आकारान्त स्त्रीलिङ्गशब्दः छात्रा.
हा तत्र प्रायश छात्रः छात्रा भेदः अस्ति वा? अत्र स्त्रीलिङ्गः एव, स्त्रीलिङ्ग एव इति वा, अथवा पुल्लिङ्गमपि भवितुम् अर्हति वा?
न, छात्रः इस् अकारान्त, छात्रा इस् आकारान्त स्त्रीलिङ्ग.
अत्र स्त्रीलिङ्गरूपमेव,
अत्र स्त्रीलिङ्गशब्दः अस्ति.
अत्र स्त्रीलिङ्गशब्दः, तत्र पुल्लिङ्गे किं भवति? पुल्लिङ्गे किं भवति? पुल्लिङ्गे किं भवति?
पुल्लिङ्गे छात्राय.
एकवचने अत्र एकवचनं वा बहुवचनं वा
अत्र एकवचनं
एकवचनं
छात्राय छात्राभ्यां छात्रैः स्त्रीलिङ्ग इति छात्रायै छात्राभ्यां छात्रेभ्यः नो इन् पुल्लिङ्ग इति छात्रेभ्यः इन्
अस्तु 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 पश्यामः अग्रिमे पुटे अस्ति भगिनि चिन्ता मास्तु अग्रिमे पुटे अस्ति समीचीनं भगिनि धन्यवादः धन्यवादः अग्रे अग्रे गीताञ्जलि भगिनी पठति वा
भक्तः देवतायै फलम् अर्पयति देवता इति आकारान्त स्त्रीलिङ्गपदं देवता
अपि देवतायै एकवचने एव बहुवचने वा एकवचने समीचीनं भगिनि अग्रे
देवता इति स्त्रीलिङ्गपदं महोदय
स्त्रीलिङ्गपदं हा देवता सत्यं भगिनि हा देवता
शिव एकं देवता अस्ति महोदय न शिव
शिवः इति देवः अस्ति देवता अस्ति देवी अस्ति
वयं हिन्दीभाषायां तु देवता इति पुंलिङ्ग अस्ति
अस्तु भगिनि अस्तु 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 अस्तु
अस्तु कृष्णः अर्जुनाय दिव्यं चक्षुः दत्तवान्
तत्र दिव्यं ददामि ते चक्षुः इदानीं
अर्जुनः अकारान्त पुंलिङ्गपदम् अर्जुनाय चतुर्थी एकवचनं
समीचीनं भगिनि
यत् कस्मै अपि अश्रद्धया ददाति तत् असत् भवति कस्मै इति एकवचन अपि चतुर्थी प्रातिपदिकं किं
तत्र
सः
तत्र सः तु तत्र तद् तद् इति भवति तद् इति तत्र तस्मै इति किन्तु एतद् किं किम् इति एव अस्ति भगिनि किम् इति अस्ति किमेव तत्र नपुंसकलिङ्गे भवति यत् यतोहि न जानीमः खलु तत्र
महोदय त्रिषु लिङ्गेषु अपि कस्मै एव
शब्दः सः अस्ति चेत् तद् भवति
किन्तु कः अस्ति चेत् तत्र किम् इति शब्दः अस्ति भगिनि तत्र पेज् 200 पश्यतु तत्र कोष्टकं यद् दत्तम् अस्ति तत्र इदं शब्दस्य इदम् अपि इदं न तत्र तद् शब्दस्य तद् इति सः सा इति रूपं भवति किन्तु किम् इति पदं
तत्र यत् कस्मै इत्युक्ते टु हूम् इति नास्ति वा
न कस्मै
अपि
पूर्वम् इदानीं बहु समीचीनमस्ति अत्र वाक्यम् अपि गीताञ्जलिभगिनी एव पठति तत् यतः गीताञ्जलिभगिनी पृष्टवती तत्र यदा तदा तादृश पदद्वयं भवति वा इति भवती पृष्टवती खलु पूर्वम् अत्र अस्ति पश्यतु यत् तत् इति
तत्तु सत्यं तत्तु अहं ध्यानं न
अतः तत्र यत् किन्तु तत्र अन्यत्र यत् इति सन्दर्भे यत् अस्ति तस्य तत् प्रायशः भिन्नः अत्र यत् तत् इति तत्र यत् कस्मै अपि अश्रद्धया ददाति तत् तत्र यः सः इति अर्थे भगिनि यः सः इति जाने यः सः या सः इति रूपं जानीमः खलु यः यः इदानीं प्रकोष्ठे तत्र यः इदानीम् आगच्छति सः एव प्राध्यापकः सः एव सचिवः इति तादृश वाक्यं जानीमः खलु तत्र तादृशवाक्यमेव अत्र नपुंसकलिङ्गे अस्ति तावदेव.
किन्तु अत्र तु महोदय कस्मै चतुर्थी त्रिषु लिङ्गेषु महोदय किं
न त्रिषु लिङ्गेषु न कस्मै इति तु पुल्लिङ्गे वा नपुंसकलिङ्गे
स्त्रीलिङ्गे
कस्यै 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 यकारः अस्ति न स्त्रीलिङ्गे कस्यै इति अस्ति कस्यै इति अस्ति
अस्तु महोदय
कस्यै इति अस्ति तत्र तत्र शोभा भगिनी भवती पृष्टवती खलु तत्र यत् इत्युक्ते किम् इति तत्र किमपि वस्तु ददामः खलु भगिनि
आं महोदय तत्र महोदय यथा अपि भवितुम् अर्हति वा महोदय यत् इति तु वस्तु एव किन्तु कस्मै इत्युक्ते इफ् वि गिव् समथिङ्ग् वित् अश्रद्धा टु समवन् तत्र भवति वा महोदय
न तादृशार्थ तत्र यदि तर्हि इति नास्ति भगिनि तत्र यत् दाट् विच् वि गिव् वित् अश्रद्धा दाट् इस् असत् to someone that is asat
that to someone is kasmai na bhavati va mohodaya
kas to someone na kasmai to someone that we give to someone to someone give to someone iti arthe eva kintu tatra
mohodaya tat
if if and when iti tadrusham na bhavati tatra
tatra yat kasmai api if
we have it refers to ashraddaya
without
पुनरेकवारं भगिनि भवतः प्रश्नः भवत्याः प्रश्नः
यत् कस्मै अपि टु हूम् एवर् वि गिव् समथिङ्ग् इफ् वि गिव् इट् वित् नो श्रद्धा देन् असत् भवति
हा तत्र इफ् देन् इति नास्ति भगिनि तत्र तद् असत् भवति इति तत्र यः
इफ् देन् इति अर्थे क्षम्यतां महोदय इति मे बि ऐ एम् नाट् सेयिङ्ग् इट् प्रापर्लि इफ् देन् अर्थे न उक्तवती
किन्तु तदेव अर्थः भगिनि तत्र यद् ददामः किन्तु यत् ददामः तत् असत् भवति तत् वस्तु एव असत् भवति इति
आम् महोदय
यत् कस्मै अपि अश्रद्धया ददाति तत् असत् भवति तत्र कस्मै इति नपुंसकलिङ्गे अस्ति इत्युक्ते तत्र डिफाल्ट् अस्ति खलु तत्र यदि न जानीमः तत् किम् इति वदामः खलु उत्तरं भवितुमर्हति सा उत्पीठिका इति किन्तु न जानीमः पूर्वं तत् उत्पीठिका स्त्रीलिङ्गे अस्ति इति
तत्र चतुर्थीविभक्तिं नास्ति वा
चतुर्थी कस्मै इति चतुर्थीविभक्ति एव अस्ति किन्तु नपुंसकलिङ्गे अस्ति यत्र लिङ्गं न जानीमः तत्र डिफाल्ट् अस्ति तत्र पश्यतु तत्र किं पश्यति इति किं पश्यति वृक्षं पश्यामि उत्तरं किन्तु वृक्षं पुल्लिङ्गे अस्ति किन्तु किम् इति नपुंसकलिङ्गे प्रश्नः अस्ति खलु तादृश तत्र तादृश डिफाल्ट् अत्र यत् कस्मै अपि अश्रद्धया ददाति तत्र कस्मै इति पुल्लिङ्गे भवति नपुंसकलिङ्गे भवति एकवचने चतुर्थीविभक्तिरूपं किन्तु डिफाल्ट् अस्ति नपुंसकलिङ्गम् इति
अस्तु महोदय
तत्र यः साहित्यरूपं तावदेव अस्तु गीताञ्जलि भगिनी इदानीं तत्र यत् तत् इति रूपम् अस्ति किन्तु यः सः इति तादृशरूपम् अस्तु भिन्नरूपं अग्रे भगिनि
देवाः मानवाय इष्टान् भोगान् यच्छन्ति अत्र तु मानव इति अकारान्त पुंलिङ्ग् अस्ति चेत् चतुर्थी
मानवः
एकवचनात् मानवाय देवाः मानव टु मेन्कैण्ड् इष्टान्
मनुष्यः प्रत्येकमनुष्यः मानवः एकवचने अस्ति यः यत् सः इच्छति यत् भोगम् इच्छति तत् भोगं देवाः यच्छन्ति
मानवाय इष्टान्
मानवाय इष्टान् न इष्टान् भोगान् यत् यान् भोगान् न ये भोगाः मानवः इच्छति अथवा न ये भोगः न यान् भोगान् मानवः इच्छति तान् सर्वान् देवाः मानवाय यच्छन्ति. किं भगिनि?
मानवार्थम् इति अपि वक्तुं शक्नुमः वा महोदय? तत्र चतुर्थी विभक्ति
मानवार्थमिति मानवस्य उपयोगार्थं सत्यं भगिनि, तत् वक्तुं शक्नुमः. समीचीनं.
किन्तु एकवचन अस्ति चेत् महोदय सर्वे
प्रत्येकमानवः तत्र केवलम् एकः मनुष्यः तत्र पश्यन्तु लोके सः अस्ति तस्मै एव देवाः सर्वं ददति इति न मानवाय. टु मेन् अथवा टु वुमन् इति टु ह्यूमन् इति तावत् तादृश. अग्रे भगिनि
न
पठतु भगिनि.
मनुष्याः देवाय हविः अर्पयन्ति तत्तु साधारण देवः देवाय चतुर्थी एकवचनं
हविः अर्पयन्ति. समीचीनं भगिनि.
हविः इत्युक्ते घी इत्युक्ते
हविः इति
होम
सामग्री होमद्रव्यं होमद्रव्यं होमद्रव्यविशेषम्. अस्तु अग्रे मधुसूदन महोदय पठति वा.
धन्यवादः.
धन्यवादः भगिनि.
महोदय कस्मै
इदानीम् अष्टम अग्रिमे पुटे भक्ताय
भक्ताय ईश्वरः सद्बुद्धिं ददाति. सद्बुद्धिं ददाति भक्तः
ईश्वरः ददाति. कस्मै ददाति? भक्ताय ददाति. किं ददाति? सद्बुद्धिं ददाति. तत्र ददाति इति कार्य इति क्रियायां कः ददाति इति अस्ति, किं ददाति इति अस्ति, अपि कस्मै ददाति इति अस्ति. अतः तत्र अंशत्रयं उक्तमस्ति. अग्रे महोदय.
कस्मै अपि यत् किमपि ददाति तत् अपि ईश्वरार्पणं करोतु.
कस्मै अपि वदतु महोदय. कस्मै अपि
यत् किमपि ददाति तत् अपि ईश्वरार्पणं करोतु. अत्र कस्मै पुंलिङ्गशब्द चतुर्थी विभक्ति.
सत्यं महोदय, सत्यं सत्यं. तत्र किं चिन्तनम्? अत्र ईश्वरार्पणं तत्र पूजा समये ईश्वरार्पणम् इति कुर्मः, किन्तु तद्विहाय यदि कस्मै किमपि दद्मः तदपि ईश्वरार्पणम् इति चिन्तयित्वा ददातु इति. अग्रे
अभक्ताय गीताना देय अभक्ताय गीताना देय अभक्ताय
यस्य यस्मिन् भक्तिः नास्ति तस्मै भगवद्गीता न देया न दातव्यम्. अभक्तः पुल्लिङ्गशब्दः, अकारान्त पुल्लिङ्गशब्दः अभक्तः.
महोदय देया इति रूपं किं महोदय?
धेया न धेयं तत्र धेयं कर्मणि कर्मणि प्रयोगे अस्ति इति मन्ये भगिनि. तत्र
पश्यामि महोदय.
गिविङ्ग्
तत्र न धातव्यम् इति तत्र न धेय इति समानार्थकं, किन्तु
गिविङ्ग् इति दत्तमस्ति
महोदय. किन्तु वंशीसुधायाः भगिन्याः प्रश्नः तत्र रूपं कीदृशम् इति.
न धेय
नाट् देय क्षम्यतां महोदय
देय
तत्र दा इति धातु कर्मणि प्रयोगे अस्ति महोदय
किन्तु भगिनि किन्तु अत्र धेय इति क्रियापदं नास्ति इति मन्ये भगिनि खलु
परन्तु
ओ न न न क्षम्यतां क्रियापदमेव क्रियापदं न धेय इति क्रियापदमेव क्रियापदमेव
गीता इति श्रीलिङ्गं भवति अतः देया इति पदं चिन्तयामि
किन्तु तादृश अतः मम क्लेशः वा तत् तादृश अस्ति चेत् तत् क्रियापदं न भवेत् खलु भगिनि तत्र हा तत्र न दातव्यम् इति तादृश अर्थे न दातव्यः इति न न न दत्ता इति न दत्ता न भवति न धेया न दत्ता इत्युक्ते वाज़् नाट् गिवन् अत्र नाट् टु बि गिवन् इति भेदः अस्ति
क्रियापदं किमर्थं न भवेत् महोदय तत्र यदि
क्रियापदम् अस्ति चेत् लिङ्गभेदः न भवति खलु भगिनि
ओ अस्तु परन्तु तत्र चतुर्थी अस्तु आं महोदय
अतः किञ्चित् चिन्तनम् आवश्यकमस्ति भगिनि
क्रियाभेदमस्ति चेत् लिङ्गभेदं न भवति गीता
अतः मम चिन्तनं अतः तत्र प्रायशः किमपि अन्यत् अस्ति इति अस्तु मधुसूदन मोदी अग्रे
भक्ताः भक्त्या पत्रं पुष्पं फलम् इत्यादि ईश्वराय ददाति भक्ताः भक्त्या पत्रं भक्ताः भक्त्या ददाति
भक्ताः महोदय अन्तिमपदं किम् अस्ति तत्र वाक्ये
ददाति
ईश्वराय
ददाति
न एकवारं पठतु
भक्ताः
न न अन्तिमपदं महोदय ईश्वराय तदनन्तरं
ददाति
भक्ताः इति अस्ति भक्ताः इति अस्ति बहुवचने अस्ति खलु महोदय ददति भक्ताः ददति ईश्वराय ददति के ईश्वराय किं ददति
पत्रं पुष्पं फलम्
इत्यादि इत्यादि ईश्वराय ददति भक्त्या ददति
भक्त्या अत्र चतुर्थी विभक्तिः भक्ताः
इति प्रथमविभक्ति भक्त्या इति तृतीयविभक्ति भक्त्या इति तृतीयविभक्ति तत्र कुञ्चिकया द्वारस्य उद्घाटनं करोमि अतः तत्र माध्यमम् अस्ति अथवा भावः अस्ति अत्र भावः अस्ति भक्तिभावेन तत्र भद्रं पुष्पं फलम् इत्यादि ईश्वराय ददति इति समीचीनं महोदय अस्तु अग्रे श्रीनिवास महोदय
ज्ञानिनः शुश्रूषवे ज्ञानं ददति
तत्र
ज्ञानिनः इति
तत्र ते ज्ञानिनः इति ददति अतः ज्ञानिनः ज्ञानिनः बहुवचने अस्ति ते ददति किं ददति ज्ञानं ददति कस्मै ददति शुश्रूषवे तत्र शुश्रूषुः इति तत्र गुरुः इति पदस्य चतुर्थी एकवचनं गुरवे तादृश तत्र शुश्रूषवे ज्ञानं ददति. अत्र एकं वक्तव्यम् अस्ति, तत्र शुश्रूषुः इति यत् अत्र दत्तमस्ति, तत्र अर्थः कः इति प्रश्ने सति, तत्र ज्ञानिनः शुश्रूषवे ज्ञानं ददति इत्युक्ते तत्र क्लेशः भवति खलु. तत्र शुश्रूषुः इत्युक्ते वयं किं चिन्तयामः, वैद्यः इति किं इति चिन्तयामः खलु, किन्तु तत्र अर्थः अस्ति शिष्यः इति. हा, तत्र रूढार्थः, तत्र पदस्य प्रायशः एतत् अहं पूर्वमपि उक्तवान्, तत्र पदस्य अर्थद्वयं भवति, रूढार्थः एकः, अपि योगार्थः इति अन्यः. योगार्थः इति सः अर्थः तत्र पदस्य निर्माणं दृष्ट्वा, तत्र प्रातिपदिकं किं, तत्र तस्य निर्माणं कथम् अभवत् इति सर्वं दृष्ट्वा, तत्र के के प्रत्ययाः योजिताः इति सर्वं दृष्ट्वा एकः अर्थः भवति, सः अर्थः रूढार्थः, सः अर्थः योगार्थः. अन्यः अर्थः अस्ति रूढार्थः, तत् गच्छता कालेन जनाः अस्मिन् अर्थे एतत् पदस्य प्रयोजनं प्रयोगः कुर्वन्ति इति कृत्वा सः अर्थः अपि तत्र लोके दृश्यते. एषः अर्थः तत्र शुश्रूषुः इति, एकः अर्थः वैद्यः इति, सर्जन् तादृश प्रसिद्ध वैद्यः अस्ति शुश्रूषुः, किन्तु अत्र रूढार्थः अस्ति शिष्यः इति. तत्र तत्र श्रोतुं यः इच्छति सः शुश्रूषुः इति, सः भवति योगार्थः. श्रोतुं यः इच्छति सः शुश्रूषुः, तादृशपदम् अन्यत् पदमपि वयं द्रष्टुं शक्नुमः. तत्र जिज्ञासुः इति जानन्ति वा, जिज्ञासुः इति इत्युक्ते कः,
उत्सुकः,
जिज्ञासुः, ज्ञातुम् इच्छति, यस्मिन् ज्ञानस्य इच्छा, हा, यस्मिन् जिज्ञासा, ज्ञातुम् इच्छा, यस्मिन् जिज्ञासा अस्ति सः जिज्ञासुः, यस्मिन् श्रोतुम् इच्छा, हा, यस्मिन् श्रोतुम् इच्छा अस्ति सः शुश्रूषुः. अपि तादृशः अत्र अग्रिमे पुटे अधोभागे अस्ति, पेज् 149 अधोभागे, चिकीर्षुः, युयुत्सुः, यः योद्धुम् इच्छति, यस्मिन् युद्धं कर्तुम् इच्छा अस्ति सः युयुत्सुः, यः तत्र यस्मिन् चिकीर्षा अस्ति सः चिकीर्षुः, अपि यस्मिन् मुमुक्षा अस्ति, मोक्षस्य इच्छा अस्ति सः मुमुक्षुः. अतः तत्र मुमुक्षुः, युयुत्सुः, चिकीर्षुः, शुश्रूषुः इति तादृश.
महोदय, तादृशरूपस्य नाम किं महोदय?
नाम नास्ति भगिनि, तत्र सन् प्रत्ययस्य योजनेन एतादृशं सर्वं निर्मितम् अस्ति भगिनि. तत्र इच्छा, तत्र भावः अस्ति, तत्र जिज्ञासा, अपि तत्र चिकीर्षा, तादृशभावः अस्ति अत्र. मुमुक्षा इति तत्र भावम् उपयुज्य, तत्र भावः एकः अस्ति, अन्यत् यस्मिन् सः भावः अस्ति तस्य अपि एकं पदं निर्माणं भवति, पदस्य निर्माणं भवति. तत्र यदि मुमुक्षुः इति पश्यामः, तत्र मम प्रश्नः आसीत् तत्र एतत् सर्वदा पुल्लिङ्गे भवति वा, तत्र मुमुक्षुः इत्युक्ते किं सर्वदा पुरुषः इति वा इति, किन्तु मुमुक्षुः अथवा शुश्रूषुः पुल्लिङ्गे अस्ति, किन्तु तत्र महिलापि मुमुक्षुः भवति, शुश्रूषुः भवितुम् अर्हति. तत्र एतस्य पदस्य लिङ्गं पुल्लिङ्गं, किन्तु तत्र यः कोऽपि तत्र मुमुक्षुः भवितुम् अर्हति तत्र. अतः तत्र पदं केवलं पुल्लिङ्गे अस्ति, किन्तु वयम् एतद् वक्तुं शक्नुमः सा महिला मुमुक्षुः इति तद् वक्तुं शक्नुमः यतः तत्र एषः मम मित्रम् इति वदामः खलु तत्र मित्रं नपुंसकलिङ्गे अस्ति किन्तु एषः इति वदामः तत्र पुल्लिङ्गे अस्ति तादृश अत्रापि प्रयोगः भवति सा शुश्रूषुः इति अथवा सा मुमुक्षुः इति तदपि वक्तुं शक्नुमः इति अस्ति अतः तत्र शुश्रूषुः तस्य चतुर्थीविभक्तिरूपं शुश्रूषवे अस्तु
महोदय शुश्रूषु इति एकं विशेषणम् इति दत्तं महोदय विशेषणं तदेव त्रिषु लिङ्गेषु भवितुमर्हति
मुमुक्षु इति रूपं तु तत्र किन्तु तत्र अहं स्वरूप महोदयं पृष्टवान् भगिनि तत्र मुमुक्षुः इति पदस्य तत्र अन्येषु लिङ्गेषु रूपम् अस्ति न वा इति किन्तु तत्र पुल्लिङ्गरूपमपि तत्र मित्रमेव तत्र प्रयोगं कर्तुं शक्नुमः इति उत्तरं प्राप्तं मया
अतः तत्र
किन्तु तत्र स्त्रीलिङ्गरूपं न जानामि भगिनि यदि भवती प्राप्नोति वदतु शुश्रूषुः इति पदस्य स्त्रीलिङ्गरूपं किम् इति तद् अहं न जानामि
शुश्रूषा इति दत्तं महोदय
इति वा अस्तु 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 भगिनि किन्तु
अहं न जानामि
अस्तु भगिनि तत्र तत्र प्रायशः द्रष्टव्यमस्ति भगिनि अस्तु धन्यवादः अहमपि अन्वेषणं करोमि धन्यवादः भगिनि अस्तु
मुमुक्षा स्त्रीलिङ्गे अस्ति महोदय
किन्तु भगिनि मुमुक्षा इति तत्र भावः अस्ति भगिनि मुमुक्षा इति भावः यस्मिन् सः भावः अस्ति सः मुमुक्षुः किन्तु तत्र पश्यतु मुमुक्षा इति भावः यदि भवत्यां सा मुमुक्षा अस्ति भवती अपि मुमुक्षा इति विवरणं भवति वा किन्तु मुमुक्षु इति पदस्य मुमुक्षुः भिन्ना मुमुक्षा भिन्ना भिन्ना मुमुक्षा भावः मुमुक्षुः यस्मिन् मुमुक्षा अस्ति सः मुमुक्षुः किन्तु यस्यां मुमुक्षा अस्ति सः का इति न जानामि तत्र पदम् अन्यत् पदम् अस्ति अथवा मुमुक्षु इति पदमेव तस्य उपयोगः एव भवति इति चिन्तनं तावदेव तत्र सर्वदा सर्वाणि पदानि त्रिषु लिङ्गेषु सन्ति इति कोऽपि नियमः नास्ति खलु अतः तत्र मित्रं सर्वदा नपुंसकलिङ्गे एव अस्ति अतः तत्र सा मम मित्रं सः मम मित्रं सर्वं भवति अपि तादृश अन्यत् पदम् अस्ति व्यक्तिः इति व्यक्तिः इति पदस्य लिङ्गं कोऽपि जानाति वा स्त्रीलिङ्गम् अस्ति अतः कोऽपि आगच्छति गोविन्दः आगच्छति अहं वक्तुं शक्नोमि तत्र एका व्यक्तिः आगता का सा व्यक्तिः ओ गोविन्दः इति तत्र व्यक्तिः पदस्य लिङ्गं स्त्रीलिङ्गं किन्तु तत् उपयुज्य वयं पुरुषान् अपि तत्र विवरणं कर्तुं शक्नुमः गोविन्दः आगतः सा एव नूतना व्यक्तिः आगता इति
मुमुक्षुः पुंलिङ्गे एव अस्ति महोदय
इति वा अस्तु भगिनि इति मम चिन्तनं कुत्र भवती एतत् दृष्टवती कल्पद्रुम मध्ये अस्तु धन्यवादः भगिनि अस्तु
मुच् योगः सन् योगः
अस्तु धन्यवादः भगिनि
मोक्तुमिच्छति
इति मुमुक्षुः यस्मिन् मुमुक्षा अस्ति समीचीनं भगिनि श्रोतुम् इच्छति मोक्षम् इच्छति इति अस्तु तत्र अन्तिमवाक्यं तत्र कः पठन् आसीत् श्रीनिवास महोदय वा क्षम्यतां महोदय, अन्यत्र किमपि गतवन्तः वयं। वदतु महोदय अन्तिमवाक्यं तत्र समापयतु।
भगवान् मुमुक्षवे मोक्षं ददाति।
तत्र वदतु महोदय।
भगवान् इति पुल्लिङ्गशब्दः अस्ति, मुमुक्षुः इति
उकारन्त पुल्लिङ्गशब्दः,
मुमुक्षवे इति चतुर्थी विभक्ति,
चतुर्थी एकवचनरूपं। समीचीनं। तत्र एतदेव, तत्र देवाः मानवाय इष्टान् भोगान् यच्छन्ति, यदि सः मानवः मोक्षम् इच्छति भगवान् मुमुक्षवे मोक्षं ददाति इति। बुभुक्षुः तादृश उकारान्तपदमेव अस्ति महोदय, तत्र द्रष्टव्यम् अस्ति तत्र, किन्तु व्यक्तिः नास्ति खलु महोदय तत्र। बुभुक्षा बुभुक्षुः, सः बुभुक्षुः अस्ति इति अस्ति खलु। बुभुक्षा बुभुक्षुः, हा समीचीनं समीचीनं। धन्यवादः धन्यवादः श्रीनिवास महोदय, शोभा भगिनी धन्यवादः। हा बुभुक्षु अपि अत्र अस्मिन् समूहे स्थापितुं शक्नुमः। समीचीनं।
तथा एव पिपासुः अस्ति,
पिपासुः अपि, हा समीचीनम्। अपि
दिदृक्षुः अस्ति,
अन्यत् किम् अस्ति भगिनि? पिपासु अस्तु, धन्यवादः। समीचीनम्। अस्तु अस्तु, धन्यवादः भगिनि, समीचीनम् अस्ति। हा विशेषपद, भवती उक्तवती तत्र मुच्छति, मोचनं मोचनं, हा मुच्छ एव प्रायशः धातुः अस्ति भगिनि। हा तत्र मोचनम् अथवा मोक्षं, हा सर्वं मुच्छति मुच्यते इति। अस्तु तर्हि, तत्र समयः अपि जातः, तत्र अन्ते तत्र रघुवीरानन्द महोदय तत्र शान्तिमन्त्रं वदति वा, समापयामः।
आं महोदय। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्तिः शान्तिः शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः धन्यवादः महोदय, धन्यवादः सर्वेषां, नमस्कारः।